आम विश्वस्य गोपा देवा देवेषु यज्ञियाः यजसे भूतदक्षसा निद्रातनानरथ्यावरो नोजश्च सुक्रतोः सनात्सु जातातनया धृतव्रता या माता विश्ववेदसा सुर्याः जप्रमाहसा महीज जानादितिर्वृतावरी महान्ताः मित्रावरुणा सम्राजाः देवा वसूरा वृधानावृतमाघोषतो बृहत् नपातासवसो महःसूनो दक्षस्य सुक्रतुः सुप्रदानो युषो वास्वधिक्षितः सञ्जादानो नियेमधुर्दिव्याः पार्थिवीरिषाः नभस्वधीरावाहम् चरन्तु भ्रष्टयाः अधिया बृहतो दिवो अभियूथे वपश्यतः संराजानमसेहिता ृतावानानिषेदुःसाम्राज्याय सुक्रतुः धृतव्रता क्षत्रिया क्षत्रमासतुः अक्षश्चिद्गा दुवित्तरानुल्बनेन चक्षसा निचिन्मिषन्ता निचिरा निचिक्यतुः उतनो देव्यरीतिरुरुष्यताम् नासत्या पुरुष्यन्तो मरुतो वृद्धसवसः तेनो नापमूरष्यदधिपानक्कम् सुदानवः अदृष्यन्तो निपायुभिः स चेमहि अग्नते विष्णवे भजमरिष्यन्तः सुदानवे सुधिस्वजामम् सिन्धो पूर्वचित्तये तद्वार्यम् वृणीमहे वरिष्ठम् योपयत्यम् मित्रो यत्पान्ति वरुणो यदर्यमा उदनः सिन्धूरपान्तम् मरुतस्तदश्विना इन्द्रो विष्णुर्मेध्वांसः सजोषसः हेहिष्मा वनुषो नरोऽभिमा जिङ्कयस्यचित् विघ्नम् अक्षोदः प्रतिघ्नम् त्रिभूर्णयः अयमेक युक्था पुरोर्जष्टे विस्पतिः तस्य व्रतान्योगश्च रामसि अनुपूर्वाञ्जोग्यासाम् राज्यस्य षष्ठिव मित्रस्य व्रतावरुणस्य दीर्घश्रुत् पर्यो रश्मिना दिवोऽन्तान् ममे पृथिव्याः उभे आपप्रौरोदसीमहित्वा उदुष्यसरणे दिवो ज्योतिरयम् स्रसूर्याः अग्निर्न शुक्रस्वमिधान आहूतः वचो दीर्घप्रसध्वनीशेवाजस्य गोमतः ईशेहि पित्वो विषस्य धावने तत्सूर्यम् रोदसी उभे दोषावस्तोरुपब्रुवे भोजेष्वस्माभ्युच्च रासदा रिद्रमुक्षण्याय नेरजतम् हरजाने रथम् युक्तमासनाम सुषामानि रामे अश्वानाम् हरीनाम् इतोसना उतोऽनुकृत्यानाम् नृवाहसा सुमदभीषूकसावन्ताभिप्राणविष्ठया मती महोवाजिना पर्वन्तासचासनम्